शयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभांगम् लक्ष्मीकांतम् कमलनयनम् योगिभिर्ज्ञानगम्यम्